to Sai.
Spend the day with Sai. From 6 a.m. to 9:30 p.m.
on Radio Sai's Thursday Live.
Radio Sai Thursday Live.
Sairam, dear listeners, and welcome back to the studios of Radio Sai Prashantiralayam, giving you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to get back to the studios to continue with the evening session of this Thursday live. And this is Team Radio Sai's Ganesh inviting you all to yet another new episode of the Radio Sai Vedam Tutor. So, without any further delay, we should hand over the mic to Praveena sir to continue with the Mahanarayana Upanishad. Over to Praveena sir.
Om Sri Sai Ram. We shall commence with Ganesha Prarthana Mantra chanting together.
Om Ganana Antwa Ganapati Gum Havamahe Kavim Kavinam Upamashravastamam Jeshtharajam Brahmanam Brahmanaspata Anashrunvan Notibhissedasadhanam Prano Devi Saraswati Vajevir Vajinivati Dhinama Vitriyavato Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Harihi Om Sahana Vavato Sahanau Bhunakto Sahaviryam Karavavahai Tejasvinavadhitamastu Ma Vidvishavahai Om Shanti Shanti Shanti
Sai Ram, before we proceed, let us quickly revise what we had learnt in the previous class. So we shall start chanting from Yajna Yati Yajna Iti Yajne Nahi Deva. We'll chant together from here.
Yajna iti yajne nahi devadivam yata yajnena surana panudanta yajnena dvishanto mitra bhavanti yajne sarvam pratishthitam tasmat yajnam paramam varanti manasam vai prajapatyagum pavitra Trum manase manasa sadhu pashyati manasa rishaya praja asrijam tamanase sarvam pratishthitam tasmat manasam paramam vadanti.
I'll just chant again these two paragraphs. The next paragraph goes like this. I'll chant. Afterwards we'll chant together. Nyasa it Yahur Manishino Brahmanam Brahma Vishwakatamasvayambho Prajapati Samvatsara iti Samvatsaro Savaditya Ya Esha Aditya Purushasa Parameshti Brahmatma Yabiradityasta Tapati Rashmi Bhistabi Parjanyo Varshati Parjanye Naushadhi Vanaspata Yav Prajayamta Oshadhi Vanaspati Bhirannam Bhavatyannena Pranav Pranair Balam Balena Tapastapasa Shraddha Shraddhaya Medha Medhaya Manisha Manishaya Mano Manasa Shanti Shantya Chittam Chittam
Tena smritigga smritya smaragga smarena vijnanam vijnanena atmanam vedayati.
So we'll chant together, starting from yajna iti yajnena hi deva.
Om yajna iti yajnena hi deva divangata yajnena asura rapanudanta yajnena dvishanto mitra bhavanti yajne sarvam pratishthitam tasmat yajnam paramam vadanti manasam vai prajapatyam pavit Trum manase namanasa sadhu pashyati manasa rishaya praya asujanta manase sarvam pratishthitam tasman manasam paramam vadanti nyasa iccha hurmanishino brahmanam brahma vishvakadamasvayambhu prajapatim samvatsara iti samvatsaro sava Aditya ya esha aditya purushasya parameshthe brahmatma ya viraditya Yastapati rashmi vistabhi parjanyo varishati parjanye naushadhi vanaspataya prajayanta oshadhi vanaspati bhirannam bhavatyannena prana pranir balam balena tapastapasa shraddha shraddhaya medha medhaya manisha manishaya mano manasa shanti shantya chit Tam chittena smritya smaragga smarena vijnanam vijnana atmanam vedayati.
Please repeat after me twice.
Tasmadannam tasmadannam tasmadannam
dadan sarvaanyetani
dadan sarvaanyetani dadan sarvaanyetani
dadat Tyannat prana,
dadatyannat prana, dadatyannat prana,
bhavanti bhutanam,
bhavanti bhutanam, bhavanti bhutanam,
pranairmano,
pranairmano, pranairmano,
manasascha vijnanam,
manasascha vijnanam manasascha vijnanam
vijnanadanando
vijnanadanando vijnanadanando
brahmayonihi
brahmayonihi brahmayonihi
sava esha purushah
sava esha purushah sava esha purushah
panchada
panchada panchada
panchatma
panchatma panchatma
yena sarvamidam
yena sarvamidam yena sarvamidam
yena sarvamidam
yena sarvamidam yena sarvamidam
prutam
prutam prutam
prithivi chantariksham
prithivi chantariksham prithivi chantariksham
prithivi chantariksham cha
prithivi chantariksham cha prithivi chantariksham cha
dyauscha dishascha vantaradishascha
dyauscha dishascha vantaradishascha dyauscha dishascha vantaradishascha
savai sarvamidam
savai sarvamidam savai sarvamidam
jagat sasabhutagum
jagat Jagatsasabhutagum, Jagatsasabhutagum,
Jagatsasabhutagum,
Jagatsasabhutagum, Jagatsasabhutagum,
Sabhavyam,
Sabhavyam, Sabhavyam,
Jijnasakrip.
Jignyasa krupta, Jignyasa krupta,
Ratajarayishtha,
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 Shraddha satyo,
Shraddha satyo,
Shraddha satyo,
Mahaswam tapaso,
Mahaswam tapaso,
Mahaswam tapaso,
Mahaswam tapaso,
Mahaswam tapaso,
Mahaswam tapaso,
Varishtajnyatva,
Varishtajnyatva, Varishtajnyatva,
Varishtajnyatva,
Varishtajnyatva, Varishtajnyatva,
Tamevam manasa,
Tamevam manasa, Tamevam manasa,
Hridacha bhuyona,
Hridacha bhuyona, Hridacha bhuyona,
Mrityumupayahi,
Mrityumupayahi, Mrityumupayahi,
Vidvan tasmat,
Vidvan tasmat, Vidvan tasmat.
Again, we'll do it from the same, do the same paragraph, starting from tasmadannam. Please repeat after me once.
Tasmadannam dadan sarvaanyetani.
Tasmadannam dadan sarvaanyetani.
Dadat. Tyannat prana bhavante,
dadat tyannat prana bhavante,
dadat tyannat prana bhavante,
dadat tyannat prana bhavante,
bhutanam pranair mano,
bhutanam pranair mano,
manasascha vijnanam vijnanam Vijnanadanando
Manasascha Vijnanam Vijnanadanando
Brahma Yonisava Esha Purushaha
Brahma Yonisava Esha Purushaha
Brahma Yonisava Esha Purushaha
Brahma Yonisava Esha Purushaha
Panchada Panchatma Yena Sarvamidam
Panchada Panchatma Yena Sarvamidam
Protam Prithive Chantarikshancha
Protam Prithive Chantarikshancha
Yauscha Dishascha Vamtara Dishascha
Dyauscha Dishascha Vantara Dishascha Dyauscha Dishascha Vantara Dishascha
Savai Sarvamidam Jagat
Savai Sarvamidam Jagat Savai Sarvamidam Jagat
Sasabhutagum Sabhavyam
Sasabhutagum Sabhavyam
Jijnyasa Kripta Tartajarayishtha
Jijnyasa Kriptarsayajayishtha
Jijnyasa See, it is G goes up Jijnyasa Kriptarsayajayishtha
Jijnyasa Kriptarsayajayishtha
Jijnyasa Kriptarsayajayishtha Shraddha Satyo Mahaswam Tapaso
Shraddha Satyo Satyo Mahaswam Tapaso
Shraddha Satyo Mahaswam Tapaso
Shraddha Satyo Mahaswam Tapaso
Mahaswam Tapaso
Mahaswam Tapaso
Varishtha Jnatva Tamevam
Varishtha Jnatva Tamevam
Varishtha Jnatva Tamevam
Manasa Hridacha
Manasa Hridacha
Bhuyo Namrit
मृत्युमुपयाहि
भूयो न मृत्युमुपयाहि भूयो न मृत्युमुपयाहि
विद्वान् तस्मात्
विद्वान् तस्मात् विद्वान् तस्मात्
We shall now try chanting this paragraph. But before that, I'll chant once the whole paragraph. The sentence being long, so we'll chant slowly. I'll just chant once.
Tasmadannandadantharvanyetani dadatyannat prana bhavanti bhutanam pranair mano manasascha vijnanam vijnanadanando brahma yonisava esha purushav panchada panchatma yena sarvamidam प्रोतं पृथ्वे चांतरिक्षंच द्यौश्च दिशश्च वामतरदिशाश्च सवै सर्वमिदं जगत्ससभूतगुं सभव्यं जिज्ञासकृप्तरतजार इष्ठा श्रद्धा सत्यो महस्वां तपसो वरिष्ठा ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् तस्मात् विल चैंट टुगेदर
तस्मादन्नं ददं सर्वान्येतानि दधात्यन्नात् प्राणा भवन्ति भूतानाम् प्राणैर्मनो मनसश्च विज्ञानम् विज्ञानादानन्दो ब्रह्मयोनिः स वा एष पुरुष पञ्चधा पञ्चात्मा येन सर्वमिदम् प्रोतम् पृथिवी चान्तरिक्षम् च ौश्च दिशश्चावान्तरदिशाश्च स वै सर्वमिदम् जगत्स स भूतगुं स भव्यम् जिज्ञासकृप्तरतजार इष्ठा श्रद्धा सत्ये महस्वान्तमसो वरिष्ठान् ज्ञात्वा तमेवम् मनसा हृदय च भूयो न मृत्युमुपयाहि विद्वान् तस्मात्
न्यासमेषाम्
न्यासमेषाम् न्यासमेषाम्
तपसामतिरिक्त
तपसामरिरिक्त तपसामतिरिक्ता
माहुर्वसुरण्वो
माहुर्वसुरण्वो माहुर्वसुरण्वो माहुर्वसुरण्वो
विभूरसि
विभूरसि विभूरसि
प्राणे त्वमसि सन्धाता
प्राणे त्वमसि सन्धाता प्राणे त्वमसि सन्धाता
ब्रह्मन्स्त्वमसि
ब्रह्मन्स्त्वमसि ब्रह्मन्स्त्वमसि
विश्वधृत्तेजो
विश्वधृत्तेजो विश्वधृत्तेजो
दास्त्वमस्यग्निरसि
दास्त्वमस्यग्निरसि
दास्त्वमस्यग्निरसि दास्
त्वमस्यग्निरसे दास्त्वमस्यग्निरसे दास्त्वमस्यग्निरसे
वर्चोदास्त्वमसि
वर्चोदास्त्वमसि वर्चोदास्त्वमसि
सूर्यस्यद्युम्नो
सूर्यस्यद्युम्नो सूर्यस्यद्युम्नो
दास्त्वमसि
दास्त्वमसि दास्त्वमसि
चन्द्रमसा
चन्द्रमसा चन्द्रमसा
उपयामगृहीतोऽसि
उपयामगृहीतोऽसि उपयामगृहीतोऽसि
ब्रह्मणे एत्वा
ब्रह्मणे एत्वा ब्रह्मणे एत्वा
महस ओमित्यात्मानम्
महसोमित्य ఓమిత్యాత్మానం మహస ఓమిత్యాత్మానం యుంజీతైతద్వై.
దట్ సెకండ్ థాట్ డజన్ గో అప్.
యుంజీతైతద్వై మహోపనిషదం దేవానాం
గుహ్యం
యేవం వేద బ్రహ్మణో
మహిమానమాప్నోతి
తస్మాద్ బ్రహ్మణో మహిమానమిత్యుపనిషత్.
Again, we'll do the same paragraph. You can repeat after me twice. న్యాసమేషాం తపసామతిరిక్తమాహు వసురన్వో విభూరసి ప్రాణే త్వమసి సంధాత
బ్రహ్మన్ స్వమసి
విశ్వధృత్తేజో దాస్త్వమస్యగ్నిరసి వర్చోదాస్త్వమసి సూర్యస్య జుమ్నోదాస్త్వమసి చంద్రమస ఉపయామగృహీతోసి
బ్రహ్మణే ఏత్వా మహసోమిత్యమాత్మానం యుంజీతైతద్వై మహోపనిషదం
దేవానాం గుహ్యం య ఏవం వేద
బ్రహ్మణో మహిమానమాప్నోతి తస్మాద్ బ్రహ్మణో మహిమానమిత్యుపనిషత్.
We'll chant the whole paragraph together, but before that, just listen to me once. I'll chant alone. న్యాసమేషాం తపసామతిరిక్తమాహుర్వసురన్వో విభూరసి ప్రాణే త్వమసి సంధాత బ్రహ్మన్స్త్వమసి విశ్వధృత్. तेजो दास्त्वमस्यग्निरसि वर्चो दास्त्वमसि सूर्यस्य द्युम्नो दास्त्वमसि चन्द्रमस उपयाम गृहीतोऽसि ब्रह्मणे एत्वा महस ओमित्यात्मानम् युञ्जीतैतद्वै महोपनिषदम् देवानाम् गुह्यम् य एवम् वेद ब्रह्मणो महिमानमाप्नोति तस्मात् ब्रह्मणो महिमानमित्युपनिषत् We'll chant together.
Nyasabhesham tapasamatiriktamahur vasuranno vipurasi pranitvamasi sandhata brahmanstvamasi vishvasritejo dastvamasi agnirasi varchodastvamasi suryascha jumno dastvamasi chandramasa upayamagrihitosi brahmane etva mahaso omit चमात्मानम् युञ्जेधैतद्वै महोपनिषदम् देवानाम् गुह्यम् य एवम् वेद ब्रह्मणो महिमानमाप्नोति तस्मात् ब्रह्मणो महिमानमित्युपनिषत् सहनाववतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः यदक्षरपरभ्रष्टम् मात्रा हीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देवा नारायण नमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व सा ईश्वरा अपराधसहस्राणि क्रियन्ते हर्निषन्मया दासोऽयमिति माम् मत्वा क्षमस्व सा ईश्वरा अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष सा ईश्वरा हरिः ओम् तत्सत् श्री साईश्वरार्पणमस्तु.
With this, we come to an end to this week's Radio Sai Vidam Tutor. Now it's time for us to go to the next segment of the evening session, Radio Sai Bhajan Classroom by Brother Bishu. Sai Ram, happy listening. Stay tuned to Radio Sai Asia.
Spend the day with Sai.
From 6 a.m. to 9:30 p.m. on Radio Sai Thursday Live.
Radio Sai.